Book 2
88
88
Quá khứ của động từ cách thức 2
Bhutkal vachak sahayakari kriyaen 2
Bhutkal vachak sahayakari kriyaen 2
Con trai tôi đã không muốn chơi với búp bê.
Mera beta guliya ke saath nahi khelna chahta tha.
Mera beta guliya ke saath nahi khelna chahta tha.
Con gái tôi đã không muốn chơi bóng đá.
Meri beti football nahi khelna chahti thi.
मेरी बेटी फुटबॉल नहीं खेलना चाहती थी।
Vợ tôi đã không muốn đánh cờ với tôi.
मेरी पत्नी मेरे साथ शतरंज नहीं खेलना चाहती थी।
मेरे पति मेरे साथ शतरंज नहीं खेलना चाहते थे।
Mấy đứa con tôi đã không muốn đi dạo.
मेरे बच्चे टहलने नहीं जाना चाहते थे।
मेरे बच्चे टहलने नहीं जाना चाहते थे।
Các bạn ấy đã không muốn dọn dẹp căn phòng.
वे कमरा साफ नहीं करना चाहते थे।
वे कमरा साफ नहीं करना चाहते थे।
Các bạn ấy đã không muốn đi ngủ.
Vê sona nahi chahte the.
Vê sona nahi chahte the.
Anh ấy đã không được phép ăn kem.
Usse ice cream khane ki ijazat nahi thi.
Usse ice cream khane ki ijazat nahi thi.
Anh ấy đã không được phép ăn sô cô la.
Usse chocolate khane ki ijazat nahi thi.
Usse chocolate khane ki ijazat nahi thi.
Anh ấy đã không được phép ăn kẹo.
Usse mithai khane ki ijazat nahi thi.
Usse mithai khane ki ijazat nahi thi.
Tôi đã được phép ước điều gì đó.
Mujhe kuch mangne ki ijazat thi.
Mujhe kuch mangne ki ijazat thi.
Tôi đã được phép mua một cái váy cho mình.
Mujhe apne liye kapde khareedne ki ijazat thi.
मुझे अपने लिए कपड़े खरीदने की इजाजत थी।
Tôi đã được phép lấy cho tôi một kẹo sô cô la có nhân.
मुझे चॉकलेट लेने की इजाजत थी।
मुझे चॉकलेट लेने की इजाजत थी।
Bạn đã được phép hút thuốc lá ở trên máy bay chưa?
क्या तुम्हें विमान में धूम्रपान करने की इजाजत थी?
क्या तुम्हें विमान में धूम्रपान करने की इजाजत थी?
Bạn đã được phép uống bia ở trong bệnh viện chưa?
क्या तुम्हें अस्पताल में बियर पीने की इजाजत थी?
क्या तुम्हें अस्पताल में बियर पीने की इजाजत थी?
Bạn đã được phép mang con chó vào khách sạn chưa?
Kya tumhe hotel me kutta saath le jane ki ijazat thi?
Kya tumhe hotel me kutta saath le jane ki ijazat thi?
Trong kỳ nghỉ, mấy đứa con tôi đã được phép ở ngoài lâu.
Kya chuttiyon me बच्चों को ज्यादा देर बाहर रहने की इजाजत थी?
क्या छुट्टियों में बच्चों को ज्यादा देर बाहर रहने की इजाजत थी?
Mấy đứa ấy đã được phép chơi ở ngoài sân lâu.
उनको आंगन में बहुत समय तक खेलने की इजाजत थी।
उनको आंगन में बहुत समय तक खेलने की इजाजत थी।
Mấy đứa ấy đã được phép thức khuya.
उनको बहुत देर तक जागने की इजाजत थी।
उनको बहुत देर तक जागने की इजाजत थी।